सहनाभवतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ गुरुभ्यो नमः हरिः ओम्
धन्यवादः सर्वेभ्यो नमः अस्माकं वर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां विभक्तिरूपाणि तस्मिन् विषये वयं बहु किमपि कृतवन्तः परिचयः अपि जातः अपि सप्तसु विभक्तिषु कथामपि पठितवन्तः एकां कथां तस्य अनन्तरम् इदानीं तत्र केचन अभ्यासाः सन्ति तान् अभ्यासान् कुर्वन् स्मः इदानीं तत्र पेज् 34 मध्ये श्लोक भगवद्गीतायाः श्लोकाः सन्ति तान् परिशील्य अग्रे गच्छामः अस्तु तत्र सूर्यकुमारी भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनी गीताञ्जलि भगिनी नमस्कारः
क्षम्यतां
महोदय चिन्ता मास्तु रघुपति महोदय नमस्कारः सुप्रभातं
नमस्कारः महोदय
अस्तु तर्हि तत्र पुटसङ्ख्या 34 मध्ये भगवद्गीतायाः श्लोकाः सन्ति तत्र केचन कृतवन्तः इति मन्ये खलु तत्र काञ्चन कृतवन्तः अतः तत्र नरेश महोदय स्मरति वा यावत् पर्यन्तं वयं कृतवन्तः
3.26
कृतवन्तः अस्तु इदानीम् अतः तत्र 3.29 इति अस्तु हा अस्तु ततः तत्र किन्तु प्रथमतया एतत् कुर्मः तत्र आरम्भे एतत् सर्वदा कुर्मः तत्र तदपि कृत्वा अग्रे गच्छामः तत्र सूर्यकुमारी भगिनी तत्र भवति शब्दस्य रूपाणि विभक्तिरूपाणि एकवारं वदति वा भगिनि भवत् शब्दस्य
भवत् शब्दस्य भवान् भवन्तौ भवन्तः हे भवान् ये भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवन्तं
भवन्तः तृतीय एकवचने किम् अस्ति
भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः
भवद्भ्यः
भवतः भवतोः भवतां भवति भवतोः भवत्सु
हा समीचीनं भगिनि अस्तु इदानीं तत्र नरेश महोदय तत्र आत्मन् इति
आत्मन् आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ आत्मानः आत्मना आत्मभ्याम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मनोः आत्मनाम् आत्मनि आत्मनोः आत्मसु
हा समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र सुहृद् इति तत्र ललिता भगिनी सुहृद् पदस्य विभक्तिरूपाणि एकवारं पठति वा भगिनि
वदामि सुहृदौ सुहृदः सुहृदं सुहृदौ सुहृदः सुहृदा सुहृद्भ्यां सुहृद्भिः सुहृदे सुहृद्भ्यां सुहृद्भ्यः सुहृदः सुहृद्भ्यां सुहृद्भ्यः सुहृदः सुहृद्भ्योः सुहृदां
सुहृदोः
सुहृदोः सुहृदोः सुहृदां सुहृदि सुहृदोः सुहृत्सु
हा समीचीनं भगिनि अस्तु धन्यवादः
धन्यवादः
गीताञ्जलि भगिनी तत्र इदानीं राजा इति पदं
महोदय नकारान्त राजन् पुंलिङ्ग राजा राजानौ राजानः राजानं राजानौ राज्ञः राज्ञा राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञि राज्ञोः राजसु.
हा समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं तत्र शुभदा भगिनि, तत्र वाच् चकारान्तशब्दः स्त्रीलिङ्गे.
आं महोदय.
द्वितीयपुटे अस्ति भगिनि.
वाक् वाग् वाचौ वाचः वाचं वाचौ वाचः वाचा वाग्भ्यां वाग्भिः वाचे वाग्भ्यां वाग्भ्यः वाचः वाग्भ्यां वाग्भ्यः वाचः वाचोः वाचां वाचि वाचोः वाक्षु वाक् वाग् वाचौ वाचः.
धन्यवादः भगिनि, समीचीनम्. अस्तु रघुपति महोदय, अन्ते तत्र दिशिति
दिश् इति अस्तु, दिक् दिशौ दिशः, दिशं दिशौ दिशः, दिशा दिग्भ्यां दिग्भिः, दिशे दिग्भ्यां दिग्भ्यः, दिशे सोरि दिशः दिग्भ्यां दिशः दिग्भ्यां दिग्भ्यः, दिशः दिशोः दिशां दिशि दिशोः दिक्षु
दिक्षु. समीचीनं महोदय. अस्तु अस्तु, तत्र केवलम् एकवारं तत्र यदि आरम्भे भवति चेत् वर्गे तत्र अनेकवारं तस्य श्रवणं भवति, तस्मात् लाभः इति तावदेव. सत्यं महोदय. हा, किन्तु तत्र इदानीं एतावत् बहुवारं तत्र पुल्लिङ्गरूपाणि तेषाम् अभ्यासः जातः इति मन्ये, इदानीं स्त्रीलिङ्गरूपाणि अपि नपुंसकलिङ्गारेण लिङ्गानां तत्र रूपाणाम् अपि अभ्यासः अग्रे गत्वा अपि कुर्मः. अस्तु तर्हि इदानीं तत्र पेज् 34 तत्र 3.26 पर्यन्तं कृतवन्तः, इदानीं तत्र 3.29 तत्र नरेश् महोदय भवानेव आरम्भं करोति वा तत्र.
आं महोदय, 3.29 कृत्सन् विद् न विचालयेत्, अहं चिन्तयामि अकृत्सन् विदः मन्दान् नवम नवम अस्ति अकृत्सन् विदः मन्दान् कृत्सन् विद् न विचालयेत्
न कृत्स्न न विचालयेत्. हा अस्तु, अकृत्स्नविदः मन्दान्. हा सत्यं महोदय, अकृत्स्नविदः मन्दान्. हा सत्यं, तदेव अस्ति. अस्तु, हा अकृत्स्न अकृत्स्नमन्दान् हा कृत्स्नविद् न विचालयेत्. हा अस्तु, समीचीनं महोदय. तत्र हलन्तपदं किम् अस्ति तत्र?
विद्
हा तत्र प्रायश अकृत्स्नविदः इति तत्र ये कृत्स्नं विदुः तान् इति अस्ति. तत्र विदः इति तत्र बहुवचने अस्ति इति मन्ये, कृत्स्नविदः तत्र हा तत्र सुहृद् इति रूपं स्वीकरोतु महोदय, तत्र सुहृद् इति रूपं स्वीकृत्य तत्र वित् इति तत्र अकृत्स्नवित्. पूर्वं वयं दृष्टवन्तः खलु तत्र कथायां, तत्र ब्रह्मवित् सर्वशास्त्रवित् इति आसीत् खलु, शास्त्रविद् इति तत्र तत्र तकारान्तपदं शास्त्रविद् अत्र तत्र अपि तत्र अकृत्स्नभिद् इति तत्र विदः हा तत्र सुहृत् सुहृदौ सुहृदः सुहृदं सुहृदौ सुहृदः तत्र अकृत्स्नविदः तत्र प्रथमाविभक्ति बहुवचन भवितुमर्हति द्वितीयाविभक्ति बहुवचनमपि भवितुमर्हति तत्र न जानामि किम् अस्ति इति किन्तु विदः इति अकृत्स्नविदः मन्धान् कृत्स्नविद् तत्रापि कृत्स्नविद् अपि तत्र न विचालयेत्
तत्तु प्रथमविभक्ति कृत्स्न विद्
हा तत् प्रथमविभक्ति एकवचनं समीचीनं महोदय कृत्स्नविद् न विचालयेत् समीचीनं महोदय अतः तत्र न विचालयेत् अस्तु इदानीं तत्र वाक्यं परिशीलयामः तत्र कृत्स्नविद् न विचालयेत् इति अस्ति अतः क्रियापदं विचालयेत् एकवचने अस्ति किन्तु अकृत्स्नविदः तु तत्तु बहुवचने अस्ति मन्दान् इति अपि अस्ति हा तत्र मन्दान् प्रायशः विशेषणम् अस्ति अकृत्स्नविदः मन्दान् अकृत्स्नविदः इति अतः तत्र द्वितीयविभक्ति बहुवचनम् अपि कृत्स्नविद् प्रथमविभक्ति एकवचनं कर्तृपदं विचालयेत् कृत्स्नविद् न विचालयेत् कम् अथवा कान् न विचालयेत् अकृत्स्नविदः मन्दान् न विचालयेत् हा इत्युक्ते तत्र अहं मम पार्श्वे यद् अनुवादम् अस्ति तत् पश्यन् अस्मि तत्र दोस् हू हेव् वन् हू हेस् कम्प्लीट् नालेज् ही शुड् नाट् कास् दोस् हू हेव् इन्कम्प्लीट् नालेज् आर् टु वेवर् आर् अन्सेटल् इति अस्ति अतः अकृत्स्नविदः तत्र यस्य ज्ञानं पूर्णं नास्ति इति कृत्स्नविदः यस्य ज्ञानं पूर्णमस्ति पूर्णज्ञानम् अस्ति इति अस्तु हा न विचालयेत् अस्तु समीचीनं महोदय अस्तु अग्रे गच्छामः तत्र इदानीं सूर्यकुमारी भगिनी अग्रे 3.35 इति
3.35
तत्र द्वितीयस्तम्भे पश्यामः तद् दृष्ट्वा तत्र परधर्मः भयावहः इति
परधर्मः भयावहः
भयावहः इदानीं तस्य अतः तद् जानीमः 3.35 अस्ति तत् 3.35 दृष्ट्वा भगवद्गीतायां वयं ज्ञातुं शक्नुमः तत्र हा सर्वधर्मे निधनं श्रेयः इति
सर्वधर्मे
स्वधर्मे स्वधर्मे स्वधर्मे
श्रेयः परधर्मः भयावहः
भयावहः
एकं वाक्यं लिखत ओके परधर्मः भयावहः
तत्र
स्वधर्मे किं
तत्र 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 किं कुर्मः इत्युक्ते अत्र अस्माकं का कार्यं किम् इत्युक्ते तत्र हलन्तपदानां अभिज्ञानं रेकग्निशन् तत्र हलन्तपदम् अस्ति वा अजन्तपदम् अस्ति अत्र अस्ति हलन्तपदम् अस्ति चेत् किं पदम् इति वक्तव्यमस्ति तत्र स्वधर्मे निधनं श्रेयः परधर्मः भयावहः इति अस्ति तत्र हलन्तपदम् अस्ति वा तत्र कानि पदानि सन्ति परधर्मः कीदृशपदं हलन्तपदं वा अथवा अजन्तपदं वा अजन्तपदम् अकारान्तपदं धर्मः देवः वत् परधर्मः भयावहः भयावहः अपि तस्य विशेषणम् अस्ति तदपि अजन्तपदमेव
अजन्तपदं श्रेयस्
श्रेयस् हलन्तपदम् अस्ति समीचीनं तत्र श्रेयः इति अस्ति हलन्तपदं श्रेयस् तत्र कीदृशपदं पुल्लिङ्गं किं
श्रेयः
श्रेयस् इति सकारान्तपदं
सकारः अहं चिन्तयामि स्त्रीलिङ्गं
स्वधर्मे निधनं श्रेयः तत्र स्वधर्मे इति विभक्ति का
स्वधर्मं स्वधर्मे
विभक्तिका
चतुर्थी
न न धर्मे धर्मः इति अस्ति
धर्मे
हलन्तपदम् अस्ति चेत् समीचीनं भगिनि हलन्तपदम् अस्ति चेत् समीचीनं किन्तु अजन्तपदम् अस्ति खलु इदानीं भवत् भवत् शब्दः अस्ति चेत् भवते चतुर्थी किन्तु इदानीं अजन्तपदम् अस्ति अतः स्वधर्मे इति सप्तमी समीचीनं निधनम् इत्युक्ते तत्र कीदृश लिङ्गं किं लिङ्गं किं तावदेव
निधनं द्वितीयविभक्ति एकवचनं
अस्तु तद् भवितुम् अर्हति अन्यत् अन्य विकल्पः अस्ति वा तत्र
निधनं
यदि तद् नास्ति चेत् अन्यत् किं भवितुम् अर्हति एकः एकः अस्ति पुल्लिङ्गे अकारन्त पुल्लिङ्गे किन्तु द्वितीयविभक्ति एकवचनरूपम् अस्ति अन्यत् किमस्ति
एकवचनमपि भवति
अन्यत् पुल्लिङ्गं नास्ति चेत् किं भवितुम् अर्हति
प्रथमविभक्ति एकवचनं
नपुंसकलिङ्गं
नपुंसकलिङ्गम् इदानीं नपुंसकलिङ्गः किन्तु श्रेयः तु भवती चिन्तितवती स्त्रीलिङ्गः इति स्त्रीलिङ्गम् इति किन्तु तत्र स्त्रीलिङ्गपदं तत्र नास्ति निधनम् इति
नपुंसकलिङ्गं
हा नपुंसक श्रेयः अपि मन मनस्सि वा श्रेयस् सकारान्तपदं श्रेयः मनः मनसि मनांसि श्रेयः श्रेयसि श्रेयांसि हा इति अतः तत्र तत्र स्वधर्मे निधनं श्रेयः अस्माकं कार्यं यद्यस्ति तद् कुर्वन् यदि अस्माकं मरणं भवति चेदपि तद् उत्तमः भवति श्रेयः भवति कस्य कृते अन्यस्य धर्मस्य आचरणे परधर्मः 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 यद् यः अस्ति तं कृत्वा यद्भवति तस्य कृते स्वधर्मः श्रेयः स्वधर्मे स्वधर्मनिष्ठः श्रेयः इति अतः स्वधर्मे निधनं श्रेयः परधर्मः भयावहः भयावहः तत्र आवहति इति आवहति इत्युक्ते तत्र आह्वानं करोति इति तत्र आनयति किम् आनयति भयम् आनयति भयावहः अतः तत्र यः भयम् आवहति सः भयावहः परधर्मः तादृशः अस्ति भयावहः अस्ति किन्तु तस्य कृते स्वधर्मः श्रेयः यदि निधनं भवति चेदपि निधनम् इत्युक्ते मृत्युः मरणं भवति चेदपि स्वधर्मः श्रेयः इति समीचीनम् अस्तु अग्रे हा अग्रे गीताञ्जलि भगिनि
आं महोदय 3.23 अत्र
हा
क्षम्यता महोदय अलर्जीस्
ओ अस्तु भगिनि
मनुष्याः पार्थः सर्वशः मनुष्याः तु
बहुवचन
हा अजन्त बहुवचन प्रथमविभक्ति इति मन्ये बहुवचन पार्थ सर्वशः पार्थ अपि
अर्जुनस्य नाम अर्जुनस्य नाम
सम्बोधन अत्र न न सम्बोधन महोदय
सम्बोधन
विसर्गः नास्ति
पिता महोदय सर्वशः अपि प्रथमविभक्ति एकवचनं
हा सर्वशः तत् नामपदं नास्ति अतः तत्र मनुष्यः पार्थ सर्वशः तत्र तस्य पूर्वं किमस्ति 3.23 मध्ये यदि हि अहं न वर्तेयं जातुकर्मणि अतन्द्रितः मम वर्तमानुवर्तन्ते मनुष्याः पार्थ सर्वशः.
मम वर्तमान नंबर सेवन महोदय.
हाँ मम वर्तमानुवर्तन्ते मम वर्त समीचीनं भगिनी
वर्तन्ते मनुष्याः पार्थ सर्वशः. अत्र मम तु षष्टि एव
मम षष्टि एव हाँ तत्र
वर्तमानुवर्तन्ते
वर्तमान हाँ समीचीनं भगिनी तत्र वर्तमा इति अस्ति
वर्तमा
इति
अनुवर्तन्ते
हा अनुवर्तन्ते तत्तु क्रियापदं किन्तु तत्र वर्तमा इति यत् अस्ति तत्र वर्तमान नकारान्तपदं वर्तमान आत्मनिव आत्मनिव
तत्तु प्रथम एकवचन एव आत्मा वर्तमा इति
हा तत्र हा वर्तमान इति प्रायशः तत्र द्वितीयविभक्ति अस्ति भगिनि तत्र वर्तमान मम वर्तमान अनुवर्तन्ते
किन्तु न तु एकमेव अस्ति वर्तमानु वर्तमान अनु तु नास्ति
हा 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 किन्तु सत्यं सत्यं किन्तु आत्मा इति पदं तत्र ओ क्षम्यतां भगिनि तत् सत्यमेव मार्गः मार्गः सत्यं सत्यं मार्गः मार्गः वर्तमा वर्तमन् अनुवर्तन्ते तत्र वर्तमा
समासः अस्ति अत्र न जाने
हा तत्र वर्तमानम् अनुवर्तन्ते इति हा तत्र
समासः नास्ति क्रियापदमस्ति सुवन्तयोः एव भवति
ओ ओ मम पार्श्वे एकं पुस्तकमस्ति महोदय वर्तम इति
वर्तम एव
वर्तम अनुवर्तन्ते इति
हा किन्तु अस्तु अस्तु वर्तम अस्ति चेत् अस्तु अस्तु धन्यवादः भगिनि अतः तत्र आत्मा पदमेव नास्ति हा वर्तम इति प्रायशः तद् वर्तमन् इति एव भवति इति मन्ये एकनिमिष तत् पश्यामः तत्र एतत् वर्तमन् इति प्रायशः तत्
कर्म नकारान्त इत्युक्ते
समीचीनं समीचीनं भगिनि हा वर्तमन् वर्तमन् समीचीनं कर्मपदमिव समीचीनं भगिनि हा समीचीनं धन्यवादः भगिनि हा अतः तत्र नपुंसकलिङ्गम् अस्ति इति कृत्वा तत्र क्लेशः भवति खलु तत्र प्रथमविभक्ति वा द्वितीयविभक्ति वा इति हा किन्तु तत्र न अत्र द्वितीया द्वितीया यतोहि तत्र वाक्यं किम् अस्ति इत्युक्ते तत्र मम वर्तम अनुवर्तन्ते किम् अनुवर्तन्ते तत्र मम वर्तम अनुवर्तन्ते दे फालो मै पात् इति जनाः
वर्तम इत्युक्ते किं महोदय
अतः तत्र मम मार्गम् अनुवर्तन्ते यं मार्गं मनुष्याः इति कर्तृपदं तत्र मम वर्तम अनुवर्तन्ते मनुष्याः मनुष्याः अनुवर्तन्ते किम् अनुवर्तन्ते मम वर्तम अनुवर्तन्ते
दे फालो मी पीपल फालो मी
माय पाथ माय पाथ अतः हा माय पाथ अतः अतः अहं यदि अहं कार्यं तत्र भगवान् वदति यदि अहं किमपि कार्यं न करोमि कर्म न करोमि
ते अपि न करोमि
तर्हि ते अपि मम मार्गम् एव अनुसृत्य ते अपि सर्वं त्यजन्ति इति अतः अहं अतः अतः तत्र मनुष्याः नमस्कारः लक्ष्मी भगिनी नमस्कारः भगिनी हा अतः तत्र वर्तम इति यथा भवती उक्तवती तत्र वर्तमन् इति नकारान्त कर्मन् पदमिव नपुंसकलिङ्गपदं समीचीनम् अत्र द्वितीयविभक्ति एकवचनरूपं समीचीनं
गतसप्ताहे भवान् बहु वारं एतदेव मम
ओ अहं दत्तवान् वा कर्मपदम् इति कर्म इति अस्तु भगिनि अस्तु इदानीं सहायकमासीत् अस्तु सन्तोषजनकः अस्ति धन्यवादः भगिनि अस्तु अस्तु अग्रे रघुपति महोदय
पाप्मानं प्रजाहिह्येनं तदेव भवति वा
सत्यं सत्यं पाप्मानम् इति
पाप्मानं प्रजाह्येनं ज्ञानविज्ञाननाशनं पाप्मानं प्रजाहि
तत्र प्रजहि लोट्लकारः भवति महोदय
आमां जहि
प्रजहि प्रजहि जहि प्रजहि हि
पुनः
तत्र हि इति तत्र एव इति अर्थे हि तदेव हि
एतत् ज्ञानविज्ञाननाशनं
ज्ञानविज्ञाननाशनं तत्र ज्ञानविज्ञाननाशनं तत्र किमपि तत्र हलन्तपदं नास्ति तत्र ज्ञानिन् इति नास्ति केवलं ज्ञानविज्ञान अपि नाशनम् अतः तत्र हलन्तपदं नास्ति अत्र एनम् इति तत्रापि नास्ति प्रजा तत्र तत्र पाप्मा इति तत्र पाप्मानम् इति रूपं दृष्ट्वा तत्र आत्मानम् इति तादृश एव अस्ति इति मन्ये खलु
पाप्मानौ पाप्मानः इति भवति
तत्र द्वितीया विभक्ति एकवचन रूपं पुल्लिङ्गपदं पुल्लिङ्गपदं पाप्मानम् एकमेव अस्ति अत्र हलन्तपदं पाप्मानं प्रजहि हि एनम् तत्र ज्ञानविज्ञाननाशनम् इति अतः तत्र समीचीनं
महोदय तत्र पाप्मान् नकारान्तशब्द
नकारान्तपदम् आत्मन् इदानीम् आत्मनिव पाप्मन् अतः पाप्मा पाप्मानौ पाप्मानः द्वितीयविभक्ति कर्मपदम् अस्ति इति कृत्वा पाप्मानं प्रजाहि तत्र पाप्मानं प्रजाहि इति तत्र प्रजहि क्षम्यतां प्रजहि प्रजहि इति प्रजहिः तत्र प्रजहिः तत्र मध्यमपुरुषे एकवचन त्वम् इति त्वं प्रजहि किं प्रजहि पाप्मानं प्रजहि तत्र प्रजहि इत्युक्ते तस्य तं मारयतु इति मारयतु न मारयतु तत्र मारयतु तस्य मरणं भव करोतु इति तस्य हरणं करोतु प्रजहि यु मस्ट् किल् इति अस्ति इम्परेटिव् लोट्लकारः अपि किं पाप्मानम् इत्युक्ते तत्र ईविल् इति दुष्टशक्तिः इति अस्तु अतः तत्र पाप्मन् इति नकारान्त हलन्तपदम् अस्तु इदानीं शुभदा भगिनि अग्रे 4.09 यः
भेत्ति लोट्लकराति महोदय तत् हन्दातो अस्ति हन्ति तस्य लोट्लकारः अस्ति सम्पूर्णं भिन्नं भवति रूपं
सत्यं महोदय
तदेव
शुभदा भगिनी तत्र य वेति स माम् एति
क्षम्यतां महोदय ऐ वाट् डिस्कनेक्टेड्
अस्तु 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 भगिनि
ओ एनिबडि डूङ्ग् ओर्
न न न भवती एव तत् इदानीं यथा भवती आगतवती वयं ज्ञातवन्तः ओ अस्तु भवती गतवती तत्र
4.09
यः वेत्ति सः माम् एति एति इत्युक्ते मम समीपम् आगच्छति प्राप्नोति मां प्राप्नोति यः वेत्ति मां प्राप्नोति इति तत्र 4.9 अस्ति जन्म कर्म च मे दिव्यम् एव यः वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म न एति माम् एति सो अर्जुनः सो अर्जुन
सः माम् इति
तत्र अतः तत्र
मिक्स्ड् अप् सम् वर्ड्स् फ्रम् द
4.9 तत्र यत्र अस्ति
यः व्यक्ति तत्त्वतः इति अस्ति जन्म कर्म च मे दिव्यं
मे दिव्यं तदेव जन्म कर्म च मे दिव्यं तदेव अस्ति भगिनि
जन्म कर्म च मे दिव्यं यः वेत्ति सः माम् एति
माम् एति अतः तत्र हलन्तपदम् अस्ति वा इति प्रश्नः तत्र
जन्मन् कर्मन् इति हलन्तपदं पदानि
जन्मन् तत्र जन्म तत्र जन्म इति तत्र नपुंसकलिङ्गपदं कर्मपदमिव कर्मपदं कर्मन् इव जन्मन् अपि तत्र जन्म कर्म
प्रथमा विभक्ति एकवचनं भवति
तत्र प्रायशः तत्र यः वेत्ति इति अस्ति भगिनि तत्र जन्म कर्म च मे दिव्यम् एवं य वेत्ति अतः य वेत्ति हि हु नोस् इति खलु य जानाति किं जानाति किं जानाति तत्र जन्म कर्म च वेत् जानाति अतः तत्र जन्म जानाति कर्मपदं भवति इदानीं तत्र द्वितीयविभक्ति एकवचनं तत्र नपुंसकलिङ्गम् अस्ति इति कृत्वा तत्र क्लेशः भवति दृष्ट्वा एव वक्तव्यं नो चेत् तावदेव किन्तु केवलं तदेव अस्ति इति मन्ये तत्र जन्म कर्म एव अस्ति इति मन्ये तत्र यः वेत्ति स माम् एत्ति अतः तत्र वेत्ति क्रियापदं जानाति विद् धातुः वेत्ति अपि एति ई धातुः अतः तत्र एकवचनं एति प्राप्नोति इति
दिव्यम् इति किं किं शब्दस्य
तत्र दिव्यं मे दिव्यं तत्र मम च तत्र जन् मे इत्युक्ते तत्र मम इति अर्थे मे इत्युक्ते मम षष्टिविभक्तिरूपं मम दिव्यम् एवम् इत्युक्ते तत्र मम तत्र भगवान् वदति तत्र यः भगवतः दिव्यचरित्रं जानाति इत्युक्ते भगवतः तत्र भगवतः कर्म जानाति भगवान् किं किं करोति इति तत्सर्वं यदि जानाति इति तत्र सः भगवन्तं प्राप्नोति इति तादृशार्थे किं भगिनि माम् इति माम् इति द्वितीयविभक्ति समीचीनं भगिनि तत्र माम् इति माम् एति इत्युक्ते मां प्राप्नोति इति मम समीपम् आगच्छति इति सत्यं भगिनि माम् इति द्वितीयविभक्ति एकवचनरूपं सत्यं समीचीनं अस्तु इदानीं तत्र सर्वे कृतवन्तः प्रायशः तत्र लक्ष्मी भगिनी न कृतवती इति मन्ये खलु लक्ष्मी भगिनी तत्र 4.01 वदति वा तत्र भवती जानाति खलु वयं किं किं स्म
अहं प्राप्तवती
अस्तु इदानीं 4.1
अहं विवस्वते प्रोक्तवान् तत्र श्लोकम् इमं विभस्वते योगं प्रोक्तवान् अहम् अव्ययम्.
हा किन्तु अत्र किं किम् अस्ति तत्र योगिनः सङ्गन तत्र किं किम् अस्ति इमं विभस्वते योगं प्रोक्तवान् अहम् अव्ययं विभस्वान् मनवे प्राह मनुर् इक्ष्वाकवे तत्र किम्
मनवे प्राह मनुरिक्ष्वा
तत्र इमम् अव्ययं योगं अहं विभस्वते
प्रोक्तवान्
इदानीं तत्र हलन्तपदं किम् अस्ति तत्र प्रोक्तवान् इति प्रोक्तवान् कीदृशपदं प्रातिपदिकं किम् प्रोक्तवान् इति प्रथमविभक्तिरूपं प्रोक्तवान् प्रोक्तवन्तौ प्रोक्तवन्तः
समीचीनं
विवस्वान् अपि विवस्वत् तत्र विवस्वते इति विभक्ति का भगिनि
चतुर्थी
तस्मै प्रोक्तवान् तस्मै उक्तवान् तत्र विवस्वते प्रोक्तवान् समीचीनम् अहं विवस्वते प्रोक्तवान् तत्र इमम् अव्ययं योगं तत्र सर्वं तत्र अजन्तपदं इदं शब्दः एतत् एतत् अव्ययं योगं सर्वं तत्र नपुंसकलिङ्गे अजन्तपदम् अव्ययं योगम् इदानीं तत्र केवलं तत्र विवस्वते अपि प्रोक्तवान् इति तावदेव अस्तु अग्रे अन्ते केवलं द्वयमस्ति 5.11 अपि 4.37 तत्र 5.11 किम् अस्ति पश्यामः तदनन्तरं 4.37 मिलित्वा कुर्मः तत्र तदनन्तरम् अग्रे गच्छामः तत्र 5.11 अस्ति तत्र आत्मशुद्धये कर्म कुर्वन्ति कर्म इति जानीमः कर्मन् नकारान्तपुंसकलिङ्गपदम् आत्मशुद्धये इति तत्र किं भवति तत् चतुर्थी अस्ति तत् हलन्तपदं वा सङ्गं त्यक्त्वा कर्म अस्तु तत्र सङ्गं त्यक्त्वा कुत्र अस्ति तत् योगिनः सङ्गं त्यक्त्वा अस्तु अस्तु अतः तत् पञ्चदश योगिनः तत्र योगिनः इति कीदृशपदं हलन्तपदं वा
हलन्तपदम् एकवचनं बहुवचनं
योगिनः सङ्गं त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति तत्र आत्मशुद्धये इति चतुर्थी विभक्ति किन्तु अजन्तपदं वा हलन्तपदं वा अजन्तपदम् अस्तु अजन्तपदम् अस्तु अजन्तपदमिति सर्वे स्वीकुर्वन्ति वा आत्मशुद्धिः भवति आत्मशुद्धिः आत्मशुद्धये मतिवत् आत्मशुद्धये कर्म कुर्वन्ति किमर्थं कर्म कुर्वन्ति इति प्रश्ने सति आत्मशुद्धये कर्म कुर्वन्ति तत्र किमर्थम् इति प्रश्नः अस्ति चेत् वयं जानीमः एतदर्थम् इति एकं रूपम् अथवा चतुर्थीविभक्त्यन्तरूपम् उत्तरं भवति अतः तत्र आत्मशुद्धये आत्मशुद्धार्थं आत्मशुद्ध्यर्थम् आत्मशुद्धये कर्म कुर्वन्ति
अत्र महोदय अत्र आत्मा तु एकं पृथक् पदं तु नास्ति
न तदपि यदि तदपि वक्तुं शक्नुमः किन्तु समस्तपदं स्वीकृत्य आत्मशुद्धिः नो चेत् आत्मनः शुद्धिः आत्मशुद्धिः सत्यं भगिनि
सत्यं षष्ठी अस्ति किन्तु अत्र तु समासः
सत्यं सत्यम् आत्मनः शुद्धिः आत्मशुद्धिः इति अस्तु इदानीं तत्र केवलं 4.37 इति अस्ति, तदेव तत् कृत्वा अग्रे गच्छामः. किन्तु बहु समीचीन अभ्यासः आसीत् एतत्. हा इदानीं तत्र ए धांसि भस्मसात् कुरुते, हा ए धांसि भस्मसात् कुरुते, हा एतद् वयं दृष्टवन्तः 4.7. हा समिधः अग्निः इति प्रायशः 14 अस्ति इति मन्ये.
समिधः अग्नि,
हा समिधः अग्नि, हा ए धांसि, तत्र एद, तत्र एदस् इति मनः पदम् इव मनस् इति, तत्र एदः एदसि एदांसि, समीचीनं. हा तत्र एदांसि यथा, तत्र यथा एदांसि समिधः अग्निः भस्मसात् कुरुते ज्ञानग्निः सर्वकर्माणि भस्मसात् तथा कुरुते. तत्र हा अग्निः एदांसि, तत्र अग्निः इति, तत्र अग्निः इति कर्तृपदमस्ति, अग्निः भस्मसात् भस्ममयं, हा भस्ममयं, तत्र भस्मन् इति, तत्र भस्मसात् भस्मसात् इति अन्यत् रूपमस्ति. अस्तु भस्मन् भस्मसात् इति भवति, तत्र भस्मसात् कृते भस्ममयं करोति, किं करोति, तत्र एदांसि, एदांसि तत्र फ्यूल् यदस्ति तत् भस्मसात् कुरुते, तथैव ज्ञानग्निः सर्वकर्माणि भस्मसात् कुरुते. तत्र सर्वकर्माणि कर्म, कर्मणि कर्माणि, तदपि हलन्तपदम् अपि, तत्र एदांसि अपि कर्मपदं, तत्र हलन्तपदम्, एदांसि हलन्तपदं, सर्वकर्माणि अपि हलन्तपदम् इति, तावदेव. अस्तु समीचीनम्. अस्तु इदानीम् अग्रे गच्छामः अग्रिमे पुटे. तत्र हा सूर्यकुमारी भगिनी अग्रे पठति वा, तत्र तृतीयाभ्यासः. पेज् 35.
ज्ञानिशब्दस्य उचितानि रूपाणि प्रयुज्य एतानि वाक्यानि रिक्तस्थाने लिखत.
हा तत्र भगिनि, तत्र ज्ञानिन्, ज्ञानी, ज्ञानिन् इति, तत्र कीदृश गुणि पद पदमिव, तत्र गुणिनौ गुणिनः, हा ज्ञानिन्, हा तत्र द्वितीया किं भवति ज्ञानिन् इति पदस्य,
ज्ञानिना,
ज्ञानिनं, न न द्वितीया विभक्ति, विवचनेन, ज्ञानिनं, ज्ञानिनौ, ज्ञानिनः. अस्तु हा इदानीं तत्र एकम् अस्ति ज्ञानी सुखी अस्ति, तत्र
ज्ञानी सुखी अस्ति,
प्रथमविभक्तिरूपं, तत्र ज्ञानी सुखी, तत्र सुखी इति, तत्र कीदृशपदं तत् सुखी,
सुखी स्त्रीलिङ्गपदं,
न ज्ञानी सुखी अस्ति, सुखी तत्र ज्ञानी सुखी अस्ति इत्युक्ते किं, तत्र ज्ञानः, ज्ञानी सन्तुष्टः अस्ति इति खलु, कीदृशपदं विशेषणं, विशेषणम् अस्ति, ज्ञानी सन्तुष्टः अस्ति, सुखी, प्रायशः तदपि इनि प्रत्यय एव, यस्मिन् ज्ञानः अस्ति सः, यस्मिन् ज्ञानम् अस्ति सः ज्ञानी, यस्मिन् सुखः अस्ति सः सुखी, सुखिन्, ज्ञानि सुखिन्, ज्ञानी सुखी अस्ति. इदानीम् अग्रे किं स्वीकरोति तत्र, अनन्तः आनन्दः अस्ति इति स्वीकरोति वा, किं स्वीकरोति तत्र, तत्र वाक्यं यद् दत्तमस्ति वाक्यभागं वाक्यखण्डं यद् दत्तमस्ति तत् स्वीकृत्य ज्ञानिन् इति पदस्य उचितं रूपं स्वीकृत्य मेलनं कृत्वा वाक्यं रचनीयम् सुखी अस्ति तत् कृतम् इदानीं तत्र तत्र एतत् करोतु तत्र सः चर्चां करोमि तत्र किं भवति सः चर्चां करोमि
ज्ञानिने सह
न न न ज्ञानिने सह वा ज्ञानिने इति विभक्ति का ज्ञानिना सह समीचीनं तृतीयविभक्ति ज्ञानिना सह चर्चां करोमि समीचीनं भगिनि अस्तु नरेश महोदय
अनन्तः आनन्दः अस्ति तत्र तु सप्तमी विभक्ति ज्ञानिनि अनन्तः आनन्दः अस्ति
हा ज्ञानिनि अनन्तः आनन्दः अस्ति समीचीनं महोदय अस्तु ललिता भगिनी अग्रे ज्ञानिनः ज्ञानम् अपारम् समीचीनं भगिनि समीचीनं षष्ठिविभक्ति समीचीनं अस्तु अग्रे गीताञ्जलि भगिनि
ज्ञानं सम्पादयामि ज्ञानं सम्पादयामि
न सम्पादयामि इति अस्ति चेत् कर्तृपदं किम्
ओ
पञ्चमी
किन्तु कर्तृपदं किमस्ति न कर्तृ सम्पादयामि अस्ति चेत् अहमेव खलु अहं सम्पादयामि ज्ञानं सम्पादयामि
यदि अहं ज्ञानी अस्ति
न भवती ज्ञानी न इदानीं भवती ज्ञानी भवतु किन्तु अत्र तस्य प्रश्नः नास्ति
वक्ता
भिन्नः वक्ता भिन्नः भगिनी वक्ता भिन्नः ज्ञानी भिन्नः केवलं तत्र अत्र प्रथमविभक्तिरूपं पश्यतु भगिनि ज्ञानी सुखी अस्ति अहं सुखी अस्मि इति न रूपं न दत्तं तत्र
कर्ता अहं पादयामि इति उत्तमपुरुषे अस्ति अतः अहमेव भवति कर्ता कोऽपि
कर्ता तत्र सम्पादयामि अहं सम्पादयामि किं सम्पादयामि ज्ञानं सम्पादयामि खलु गीताञ्जलि भगिनि इदानीं तत्र प्रश्नः किं भवति प्रश्नः कः तत्र अहं ज्ञानं सम्पादयामि किन्तु कस्मात् कस्मात् ज्ञानं सम्पादयामि इति तत्र कस्मै ददामि किन्तु सम्पादनं तत्र कस्मात् सम्पादनं करोमि इति खलु तत्र विपरीतं भवति खलु भगिनि कस्मै ददामि किन्तु कस्मात् स्वीकरोमि अतः तत्र कस्मात् सम्पादयामि
किन्तु ज्ञानिन् पदस्य पञ्चमी एव
इदानीं समीचीनं अतः किं भवति रूपं किं भवति ज्ञानिनः ज्ञानं सम्पादयामि तत्र ज्ञानिनः ज्ञानं सम्पादयामि यदि एतत् वाक्यं वाक्ये अस्ति ज्ञानिनः ज्ञानं सम्पादयामि अस्ति चेत् तत्र दोषः अस्ति वा ज्ञानिनः इदानीं तत्र वाक्यम् अहं ज्ञानिनः ज्ञानं सम्पादयामि
तत्तु सत्यं महोदय अहं ज्ञानिनः ज्ञानं सम्पादयामि
किन्तु तत्र ज्ञानिनः द्विवारं भवति चेत् समीचीनं वा
द्विवारं किमर्थं महोदय
इति प्रश्नः इति प्रश्नः एकवारं समीचीनं जानीमः, द्विवारम् अस्ति चेदपि समीचीनं वा अथवा न वा इति प्रश्नः।
पञ्चमी षष्ठी अपि
हा पञ्चमी एकं पञ्चमी अन्यत् षष्ठी हा समीचीनं वा तत्
प्रथम बहुवचनमपि
न न प्रथम बहुवचनं न प्रथम केवलं पञ्चमी एकवचनं पञ्चमी एकवचनं
ज्ञानिनः ज्ञानिनः ज्ञानं सम्पादयामि इति पृष्टवान् महोदय।
हा 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 तत् तत् समीचीनं वा इति
तु प्रथमा तु षष्ठी अस्ति
न न प्रथमा अस्ति पञ्चमी
ज्ञानिनः
ज्ञानी अस्ति इदानीं गीतांजलि भगिनी तत्र ज्ञानी अस्ति तस्मात् ज्ञानं सम्पादयामि किन्तु कस्य ज्ञानं तस्य ज्ञानं तस्य ज्ञानं यः ज्ञानी अस्ति तस्य ज्ञानं सम्पादयामि हा अतः यः ज्ञानी अस्ति तस्मात् ज्ञानिनः तस्य ज्ञानिनः ज्ञानं सम्पादयामि
अहं ज्ञानिनः ज्ञानिनः ज्ञानं सम्पादयामि
इति किन्तु तत्र क्लेशः भवति अतः यदि एतत् वदामः तत्र एषः ज्ञानी अस्ति अहम् एतस्मात् ज्ञानिनः एतस्य ज्ञानिनः ज्ञानं सम्पादयामि अतः ज्ञानिनः द्विवारं स्थापितुं शक्नुमः तत्र केवलं हास्यार्थं भगिनि तावदेव तत्र ज्ञानिनः ज्ञानिनः ज्ञानं सम्पादय
बहुवचनम् अपि सम्यक् महोदय
हा किन्तु अर्थः कः भगिनि तत्र बहुवचनम् अस्ति चेत् तत्र खलु
तेभ्यः
हा 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 किन्तु ज्ञानी एव अस्ति एकः ज्ञानी अस्ति इति एव हा अस्तु अग्रे रघुपति महोदय
किमस्ति महोदय सुखी अस्ति ज्ञानी सुखी अस्ति
तत् कृतं
उपसर्पामि अहं ज्ञानिनम् उपसर्पामि इति
हा द्वितीयविभक्ति हा अहं ज्ञानिनम् उपसर्पामि हा समीचीनं तत्र तु उपसर्पामि तु बहु प्रसिद्धः क्रियापदं खलु उपसर्पा तत्र उपसर्पामि इति
इत्युक्ते महोदय
उपसर्पामि तस्य समीपं गच्छामि तस्य समीपं गच्छामि तम् उपसर्पामि कर्मपदं भवति तम् उपसर्पामि इति तत्र कोऽपि जानाति वा तत्र उपसर्पामि इति पदस्य लोट्लकारः कः उपसर्पति लोट्लकारः इदानीं तत् तत् प्रथमपुरुषे प्रथमपुरुषे मध्यमपुरुषे
उपसर्पे उपसर्प
एव इदानीं तत्र उप इति उपसर्ग अस्ति सर्पति इति सर्पति इति पदस्य लोट्लकार मध्यमपुरुषे एकवचनम् अस्ति सर्प इति प्रसिद्ध पदमस्ति नहुष कथा नहुषाय नहुष महाराजः अस्ति खलु तस्य कथायां सः एतद् वर्ति सर्प सर्प इति अतः अगस्त्य महामुनिः तं शापं ददाति खलु सर्प भव इति लोट्लकार सर्पति सर्प तद् भवति सर्पः इति तत्र उपसर्पति उपसर्पामि इति अस्तु अग्रे तत्र एतावत् लक्ष्मी भगिनि
हा अस्तु महोदय सर्वं समर्पयामि ज्ञानिने सर्वं समर्पयामि ज्ञानिने सर्वं समर्पयामि
समीचीनं भगिनि अस्तु अतः तत्र ज्ञानीपदस्य ज्ञानीपदस्य सर्वाणि विभक्तिरूपाणि वयं दृष्टवन्तः अस्तु इदानीम् अग्रे गच्छामः तत्र अग्रिमे पुटे तत्र चतुर्थ अभ्यासः इदानीं तत्र रघुपतिमहोदय आरम्भं करोति वा अग्रिम अभ्यासः
आं महोदय उपनिषत् शब्दस्य उचितानि रूपाणि प्रयुज्य एतानि वाक्यानि रिक्तस्थाने लिखत आत्मज्ञानम् अस्ति उपनिषदे आत्मज्ञानम् अस्ति इति वा उपनिषदे उपनिषदि सारि उपनिषदि
उपनिषदि आत्मज्ञानम् अस्ति समीचीनं तत्र उपनिषत् प्रायशः तत्र दकारान्तमेव अस्ति किन्तु प्रायशः परिषत् उपनिषद् स्त्रीलिङ्गपदम् इति मन्ये
स्त्रीलिङ्गपदं
उपनिषदि सम्पत् समीचीनं महोदय अस्तु तत्र अपि उदाहरणं दत्तमस्ति तदपि एकवारं
आत्मज्ञानम् अस्ति उपनिषदे आत्मज्ञानम् अस्ति अस्तु उपनिषत् उपनिषत् ऋषिभिः प्रकटिता इदानीम् उपनिषदं सर्वे इच्छन्ति इति
आं महोदय अस्तु अस्तु तावत् तावत्पर्यन्तं अस्तु तत्र उपनिषद् ऋषिभिः प्रकटिता इति तद् दृष्ट्वा वयं जानीमः
तत्
उपनिषत् स्त्रीलिङ्गे अस्ति प्रकटिता इति विशेषणं भवति उपनिषद् ऋषिभिः प्रकटिता अस्ति उपनिष भवतः वाक्यं किम् आसीत् उपनिषदि
उपनिषदि आत्मज्ञानम् अस्ति
उपनिषदि आत्मज्ञानम् अस्ति समीचीनं महोदय हा अस्तु अग्रे तत्र शुभदा भगिनी अग्रे
उपनिषद् सह गीतायाः अपि पठनं भवतु उपनिषदा सह गीतायाः अपि पठनं भवतु तृतीया विभक्ति एकवचनं
हा तत्र हा उपनिषदा सह गीतायाः अपि पठनं
भवतु
भवतु समीचीनं भगिनि अस्तु समीचीनं हा अस्तु अग्रे नरेश महोदय
महोदय उपनिषद् ज्ञानं प्राप्य सः सन्तुष्टः उपनिषदः ज्ञानं प्राप्य सन्तुष्टः
पञ्चमः हा न न न षष्ठी प्रायशः उपनिषदः ज्ञानं प्राप्य सः सन्तुष्टः अस्ति
स्वयमपि साधु भवति वा महोदय
सत्यं सत्यं महोदय तदपि भवितुम् अर्हति प्रायशः हा तत् हा किन्तु
ज्ञानं प्राप्य
हा तत् तस्मादपि तदपि तस्याः 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 ज्ञानं प्राप्य तदपि समीचीनमेव हा अस्तु तत्र उपनिषदः ज्ञानं प्राप्य प्राप्य तत्र लभन्तं तद् तद् सः प्रथमं सः प्राप्नोति तदनन्तरं द्वितीयक्रिया अस्ति सन्तोषः स सन्तुष्टः अस्ति अस्धातुः अस्ति इति क्रियापदं प्राप्य सः सन्तुष्टः अस्ति समीचीनं महोदय अस्तु अग्रे ललिता भगिनी
वदामि उपनिषदः सर्वे इच्छन्ति उपनिषदः सर्वे इच्छन्ति बहुवचनं उपनिषत् उपनिषदौ उपनिषदः
हा तत्र वचनं किं विभक्ति का
सर्वे इच्छन्ति बहुवचनम् उपनिषदः प्रथमा बहुवचनं प्रथमा
बहुवचनं उपनिषदः
सर्वे
उपनिषदः विभक्ति का तत्र
द्वितीय
उपनिषदः सर्वे इच्छन्ति
ललिता भगिनी उपनिषदः
द्वितीया बहुवचनं
हा द्वितीया बहुवचनं समीचीनं भगिनि तत्र इच्छन्ति इति उपनिषदः इति तत्र हा सर्वे इच्छन्ति सर्वे किम् इच्छन्ति उपनिषदः इच्छन्ति,
उपनिषदः इच्छन्ति।
अतः तत्र सर्वे काः इच्छन्ति, सर्वे उपनिषदः इच्छन्ति, सर्वे एताः उपनिषदः इच्छन्ति इति। समीचीनं भगिनि, अस्तु अग्रे सूर्यकुमारी भगिनि।
उपनिषत्सु ऋषिभः प्रकटिता,
न न तत् उपनिषद् ऋषिभिः प्रकटिता, तत् कृतम् उदाहरणमेव अस्ति। तत्र पाठनं तत्र प्रचलति इति अथवा
विदेशीयाः स्पृहयन्ति,
स्पृहयन्ति
उपनिषदं विदेशीयाः स्पृहयन्ति।
पुनरेकवारं भगिनि।
उपनिषद् स्त्रीलिङ्गपदम्, उपनिषदम् उपनिषदम् उपनिषदः विदेशीयाः स्पृहयन्ति।
अस्तु तत्र
कर्मपदम्,
कर्मपदम् अस्तु अस्तु, अत्रापि द्वितीयविभक्ति एव,
द्वितीयविभक्ति एव,
द्वितीयविभक्ति एव,
स्पृहयन्ति
स्पृहयन्ति स्पृहयन्ति, किं स्पृहन्ति, विदेश विदेशीयाः स्पृहयन्ति तत्र अस्तु, तत्र स्पृहयन्ति इति तत्र
विदेशीयाः
न न न विदेशीयः कर्मपदं नास्ति, कर्तृपदं,
न न कर्तृपदमस्ति,
कर्तृपदं
स्पृहयन्ति उपनिषदं स्पृहयन्ति।
हा तत्र महोदय तत्र किन्तु
किञ्चित् क्लेशः,
किमन्ति किमर्थं सप्तमी स्पृहयन्ति, क्रियापदमस्ति भगिनि,
क्रियापदं बहुवचनं,
क्रियापदं क्रियापदं बहुवचनं
पुरुषः,
किन्तु तत्र असूयन्ति अस्ति चेत् तत्र पञ्चमी भवति खलु महोदय,
स्पृहयन्ति खलु महोदय,
स्पृहयन्ति असूया इति, असूया इति अर्थे,
न इच्छन्ति इच्छन्ति
इच्छन्ति इति अर्थे, इच्छन्ति इति अर्थे अस्तु, इच्छन्ति अपि तदपि अस्ति अस्तु, इच्छन्ति इच्छन्ति अस्तु, अतः कर्मपदम् अस्तु, अतः तत्र सर्वे इच्छन्ति, सर्वे इच्छन्ति अपि अत्र उपनिषदः विदेशीयाः अपि इच्छन्ति अथवा स्पृहयन्ति इति रूपम् अस्तु, समीचीनम् अस्तु। हा अस्तु अग्रे तत् विदेशीयाः भगिनि, विदेशीयः विदेशीयः अकारन्तु, देवः देवः पदम् इति, देवः
पदम् उपनिषदं वा महोदय,
उपनिषत् न न न उपनिषदम् एकवचने, किन्तु बहुवचने, तत्र अनेकाः उपनिषदः सन्ति इति कृत्वा उपनिषदः इति कर्मपदं द्वितीयविभक्ति बहुवचनरूपं भगिनि, एकवचन तत्र एताम् उपनिषदम् इति भवति, उपनिषद् इति स्त्रीलिङ्गपदम् अस्ति इति कृत्वा एताम् उपनिषदं विदेशीयाः स्पृहयन्ति एकवचने, किन्तु अनेकाः उपनिषदः सन्ति इति कृत्वा
उपनिषदः,
हा एताः उपनिषदः विदेशीयाः स्पृहयन्ति, तत्र सा ते ताः, तां ते ताः खलु, अतः एताः उपनिषदः विदेशीयाः स्पृहयन्ति इति रूपं भवति। अस्तु अग्रे गीताञ्जलि भगिनि, अन्तिमम् एकमेव अस्ति इति मन्ये, पाठनं
पाठनं तत्र प्रचलति, तत्तु षष्टि महोदय,
इदानीं षष्टि, अतः नरीश् महोदयस्य वाक्यं तत्र पञ्चमी प्रायशः आसीत् अथवा तत्रापि षष्टि,
तत्र प्रचलति इति,
उपनिषदः पाठनं तत्र प्रचलति,
उपनिषदा सह गीतायाः अपि पठनं भवतु, तत्र गीतायाः तु बहुवचनं,
न न गीतायाः षष्टि एकवचनं,
षष्टि किन्तु षष्टि अस्ति चेत् गीतायाः किं
पठनं
उपनिषदा सह गीतायाः अपि
तत्र भगिनी तत्र पश्यतु भगिनि तत्र प्रायशः क्लेशः किमर्थम् इति अत्र अस्तु तत्र भगिनि तत्र पठनं भवतु इति ततः आरम्भं कुर्मः पठनं भवतु तत्र कस्य पठनम् इति भवति खलु
षष्ठीभक्तिः
भवति कं पठनं न कस्य पठनं कस्य एव
पठनं
अतः भगवद्गीतायाः अथवा गीतायाः पठनम् इति
सत्यं नास्ति
न कं पठनं न तत्र पठनमेव कर्मपदम् अस्ति खलु पठनं अत्र अतः तत्र कस्य एव भवति तत्र वयं दृष्टवन्तः खलु भगिनी तत्र क्रियापदस्य विभजनं कुर्मः चेत् सः पठति सः पठनं करोति इति तादृश तत्र भगवद्गीतायाः पठनं भवतु इदानीं तत्र
पठनम् इति कर्तृपदमस्ति खलु पठनं भवतु
क्षम्यतां हा तत्र पठनं भवतु अत्र कर्तृपदमस्ति सत्यं समीचीनं सत्यं महोदय तत्र पठनं भवतु कस्य पठनं भवतु भगवद्गीतायाः पठनं भवतु किन्तु तस्य पूर्वं किम् अस्ति सः इति अस्ति सः अस्ति चेत् तत्र उपपदविभक्तितृतीया उपपदविभक्तितृतीया भवति इति कृत्वा
सः नास्ति चेत् महोदय सः नास्ति चेत् तदनन्तरम् उपनिषदः गीतायाः च पठनं भवतु
उपनिषदः सत्यं किन्तु सः अस्ति अतः
अत्र सः अस्ति चेत् तृतीयायाति
तृतीया एव इति नियमः अस्ति खलु अतः
क्षम्यतां
महोदय चिन्ता मास्तु भगिनि समीचीनमेव अस्तु अस्तु इदानीम् अग्रे गच्छामः तत्र लक्ष्मी भगिनी आरम्भं करोति वा अग्रिमपुटे अग्रिमपुटे अग्रिमाभ्यासः
पाठस्य आधारेण एतत् कथनं शुद्धम् उत अशुद्धम् इति आवरणे चिह्नं कुरुत
उत इत्युक्ते अथवा इति अर्थे
अथवा राजा नीतिमान् आसीत् तत् शुद्धं वाक्यं शुद्धं
राजा नीतिमान् आसीत्
मन्त्री अविवेकी आसीत् अशुद्धम्
अशुद्धं मन्त्री अपि विवेकी विवेकी आसीत् समीचीनम् अस्तु अग्रिमपि करोतु तत्र
राज्यं सर्वसम्पदा अनुगृहीतम् आसीत्
शुद्धमेव तत्र बहु वा तत्र वर्गात् पूर्वम् एतत् पठितवन्तः खलु एतां कथां किन्तु स्मरन्ति चेत् वदतु नो चेत् चिन्ता मास्तु अस्तु शुभदा भगिनी अग्रे
राज्यं सर्वसम्पदा सर्वदिशः अपि जनाः तत्र आगच्छन्ति स्म शुद्धं
अग्रे
राजा अकस्मात् प्रवृत्ते युद्धे जयं प्राप्तवान् अशुद्धं
तत्र जयं न प्राप्तवान् सः
पराभूतः
पराजयः
प्राप्तवान् पराभूतः
अतः तत्र एतत् अशुद्धमेव अस्ति अस्तु अग्रे नरेश महोदय स्मरति वा कथम्
आं महोदय प्रश्रमेण कर्मणा धीमन्तः अभीष्टं साधयन्ति शुद्धं
अस्तु समीचीनं सूर्यकुमारी भगिनी अग्रे
महोदय महत् कष्टम् आपतितम् इति मन्त्री अवदत् आपतितम् शुद्धं
महत् कष्टम् आपतितम् इति मन्त्री अवदत्
आपतितम्
महत् कष्टम् आपतितम् इति मन्त्री उक्तवान् अवदत् समीचीनं सत्यं भगिनि अस्तु अग्रे राजा उक्तवान् अस्तु अस्तु राजा उक्तवान् राजा उक्तवान् हा सत्यं सत्यं मम राज्यं नष्टं हा महत् कष्टम् आपतितम् इति राजा उक्तवान् सत्यं धन्यवादः 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 अस्तु हा अग्रे गीतञ्जलि भगिनि
राजा मन्त्रिणः प्रति सान्त्वन
मन्त्रिणं प्रति मन्त्रिणं प्रति
ओ मन्त्रिणं प्रति सान्त्वन वचांसि उक्तवान् न विपरीतमहोदय
हा विपरीतं मन्त्री राजानं प्रति राजानं प्रति
सान्त्वन वचांसि उक्तवान्
उक्तवान् समीचीनं हा रघुपतिमहोदय
वरं राजा मन्त्रिणा सह सुखेन राज्यपालनं कृतवान् अहं चिन्तयामि कृतवान् अस्ति अन्तिमवाक्यं मन्त्रिणा सह
मन्त्रिणा सह
अन्तिमवाक्यमासीत्
पूर्वे अपि शुद्धं युद्धे युद्धस्य पूर्वमपि शुद्धं
हा आमां
सत्यं सत्यं युद्धस्य युद्धात् पूर्वं युद्धात् परं युद्धात् परं
पूर्वं परं शान्तिः भवति सर्वदा
सत्यं
मध्ये एव
अस्तु लक्ष्मी भगिनी अन्तिमं करोतु तत्र
आपति मन्त्री राजानं त्यक्तवान् अशुद्धं
तत्र अनुसृतवान् खलु महती आपदि तत्र
आपदि राजानं साहाय्यं कृतवान्
हा साहाय्यं कृतवान् आपद् 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 इत्युक्ते आपदि
आपदि सप्तमी
आपद् डेञ्जर् आपद्
इन् डेञ्जर्
आपद् आगतः सः त्यक्तवान्
आपदि
स्त्रीलिङ्गपदं
स्त्रीलिङ्गपदं स्त्रीलिङ्गपदं हा विपद् आपद् हा
आपद्
सत्यं
सम्पद्
हा हा सर्वे स्मरन्ति समीचीनम् अस्तु अस्तु तर्हि इदानीं तत्र कथा एका कथा अस्ति तत्र सम्भाषणसन्देशे तत्र सेप्टेम्बर् मास तत्र पुटसङ्ख्या अस्ति 32 सर्वे प्राप्तवन्तः वा तत्र
ईमेल् मध्ये महोदय
हा ईमेल् मध्ये हा तत्र ईमेल् मध्ये तत्र द्वितीयवाक्ये एव आसीत् इति मन्ये वि विल् यूस् दिस् फैल् एण्ड्
दिस् फैल् महोदय
हा एण्ड् दिस् फैल् प्लीस् हाव् दिस् फैल् एण्ड् दिस् फैल् रेडि इति पेज् 32 इति हा तत्र द्वितीय अस्ति तत्र सम्भाषणसन्देशः सर्वे जानन्ति खलु तत्र संस्कृतभारत्याः मासिक पत्रिका तत्र बालमोदिनी इति सत्कार्याणि कानि इति कथा
क्षम्यतां महोदय मया गन्तव्यम्
अस्तु महोदय चिन्ता मास्तु धन्यवादः नमस्कारः
धन्यवादः
हा धन्यवादः पेज् 32 भगिनि प्राप्तं वा सर्वे प्राप्तवन्तः वा तत्र अस्तु अस्तु तर्हि तत्र अस्तु तत्र लक्ष्मी भगिनी आरम्भं करोति वा तत्र
अस्तु महोदय पूर्वं कश्चन राजा
सत्यं
सत्कार्याणि कानि पूर्वं कश्चन राजा आसीत् सः देवभक्तः बहूनि मन्दिराणि तेन निर्मितानि तस्य धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म तं
द्रष्टुम्
आगताः बहवः वदन्ति स्म भवान् यानि धार्मिककार्याणि करोति ततः भवतः स्वर्गप्राप्तिः निश्चिता महापुण्यशाली भवान् इति। एतस्य श्रवणात् राजा महान्तं सन्तोषं प्राप्नोति स्म।
हा धन्यवादः भगिनि, समीचीनं। हा अस्तु, अग्रे ललिता भगिनि। अस्ति वा? अस्तु अस्तु, तत्र तर्हि तत्र शुभदा भगिनी अग्रे।
जनाः प्रशंसा कुर्युः इति इच्छा प्रबला आसीत् तस्मिन्। अतः यः यः तं द्रष्टुम् अगच्छेत् तस्य पुरतः सः आत्मना कृतानां कार्याणां विवरणम् उपस्थापयति स्म। तत् श्रुत्वा ये प्रशंसा कुर्युः तान् बहुधा सत्करोति स्म सः। अतः तं द्रष्टुम् आगताः सर्वे तस्य प्रशंसा कुर्वन्ति स्म एव। अग्रे पठामि वा?
न तावत् पर्यन्तं, धन्यवादः भगिनी। अस्तु अग्रे नरेश महोदय।
कदाचित् कश्चन सन्यासी तं द्रष्टुम् आगतः, राजा तस्य पुरतः आत्मना कृतानि कार्याणि विस्तरेण श्रावितवान्। एतत् शान्ततया श्रुत्वा सः सन्यासी अवदत्, भवता यानि कार्याणि कृतानि तानि सर्वाणि प्रयोजनहीनानि, ततः किमपि न प्राप्नोति भवान् इति।
अस्तु समीचीनं महोदय। अस्तु एकम् अन्यत् एकं परिच्छेदं पठित्वा तत्र पङ्क्तिशः पश्यामः। तत्र अग्रे सूर्यकुमारी भगिनी पठति वा अग्रे?
महोदय एतस्य श्रुत्वा
श्रवणात्
आश्चर्यं प्राप्तं। सः अवदत् सर्वे वदन्ति यत् भवता स्वर्गवास सुखमेव प्राप्येत इति, भवान् तु वदति भवता किमपि न प्राप्स्यते इति, कथम् एतत् इति।
हा समीचीनं भगिनि। हा अस्तु, इदानीं तत्र पङ्क्तिशः पश्यामः तत्र किं किम् अस्ति इति। एतावत् यदि वयं कर्तुं शक्नुमः तत्र अग्रिमे वर्गे अग्रे गत्वा सर्व समापयामः। अस्तु, तत्र गीताञ्जलि भगिनी आरम्भं करोति वा तत्र पङ्क्तिशः किञ्चित्?
महोदय प्रयत्न करोमि। महोदय पूर्वं कश्चन राजा आसीत्, आसीत् भूतकालार्थक लङ्लकार, राजा कर्तृपदं
नकारान्तपदं हलन्तपदं
राजन् इति नकारान्त पुंलिङ्गपदं, राजा प्रथम विभक्ति एकवचनरूपं, पूर्वं तु अव्ययं न महोदय?
अव्ययं भगिनि, पुराणकाले पुरातनकाले
कश्चन तु कः चन इति।
समीचीनं भगिनि, कः योगः चन कश्चन
सन्धि अभवत् इत्युक्ते पूर्वतनकाले एकं राजा आसीत्, सः देवभक्तः, इत्युक्ते राजा देवभक्तः,
सः राजा देवभक्तः, अतः देवे तस्य भक्तिः आसीत्।
देवे इत्युक्ते चतुर्थी,
देवे इति सप्तमी, देवे
देवे सप्तमी, अतः हलन्तम्
अस्ति। इदानीं तत्र हलन्तपदानन्तरं तत्र देवे अस्ति चेत् भवते अस्तु चतुर्थी इति इदानीं मास्तु। अजन्तपदं देवे सप्तमी।
बहूनि मन्दिराणि तेन निर्मितानि, अत्र मन्दिराणि इति नपुंसकलिङ्गं बहुवचन एक प्रथमविभक्ति, तस्य विशेषण बहूनि मन्दिराणि विशेषणविशेष्य तेन इत्युक्ते राजा राज्ञा
हा बहु समीचीनं भगिनि. हा तेन राज्ञा बहूनि मन्दिराणि निर्मितानि.
निर्मितानि अपि मन्दिराणि
इति पदस्य विशेषणं.
पदस्य विशेषणं
हा तत्र कर्मणि प्रयोगः. तत्र कर्तृप्रयोगे किं भवति? सः राजा.
प्रयोगे तु राजा बहूनि मन्दिराणि निर्मितवान्.
समीचीनं. हा सः राजा बहूनि मन्दिराणि निर्मितवान् इति भवति. समीचीनम्. अग्रे भगिनि.
तस्य धार्मिकश्रद्धां जनाः बहुधा प्रशंसन्ति स्म. तस्य इत्युक्ते राज्ञः.
हा तस्य राज्ञः.
तस्य राज्ञः धार्मिकश्रद्धां जनाः.
तत्र एतत् स्वीकरोतु भगिनि. तत्र जनाः प्रशंसन्ति स्म.
हा जनाः प्रशंसन्ति स्म इत्युक्ते जनाः
बहु ते प्रशंसन्ति इत्युक्ते किं?
सन्तोष
प्रशंसां प्रशंसा इति
करोति.
हा तत्र ओ बहु समीचीनम् अस्ति बहु समीचीनम् अस्ति ओ इति वदन्ति खलु तत् प्रशंसा. हा तत्र जनाः बहुधा प्रशंसन्ति स्म. किं प्रशंसन्ति स्म अथवा कां प्रशंसन्ति स्म?
कां प्रशंसन्ति इत्युक्ते राज्ञः धार्मिकश्रद्धाम् इत्युक्ते धार्मिकश्रद्धां तु कर्मपदम्.
हा तत्र राजा अस्ति तस्य राज्ञः धार्मिकश्रद्धा अस्ति. धर्मे तस्य श्रद्धा अस्ति. धर्मे तस्य श्रद्धा अस्ति. सा धार्मिकश्रद्धा या अस्ति तां जनाः बहुधा प्रशंसन्ति स्म.
अवगतं महोदय. जनाः तु कर्तृपदं, धार्मिकश्रद्धां तु कर्मपदं. कस्य धार्मिकश्रद्धां? राज्ञः धार्मिकश्रद्धां. प्रशंसन्ति इति क्रियापदं बहुधा प्रशंसन्ति स्म.
हा स्म इति भूतकाले. तत्र कण्टिन्यूस् पास्ट् इति. केवलम् एकवारं प्रशंसा कृतवन्तः इति न, बहुवारं प्रशंसन्ति, वारं वारम् इति कृत्वा प्रशंसन्ति स्म. हा समीचीनं भगिनि. अस्तु धन्यवादः. अग्रे ललिता भगिनि वदति वा?
ओ ललिता इति भगिनी अनेबल् टु अन्म्यूट् इति.
ओ इति अस्तु 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 भगिनि. तत्र अस्तु किमर्थमिति न जानामि. तत्र अहं प्रयत्नं करोमि. तत्र अत्र तु किमपि नास्ति अन्म्यूट् कर्तुम्. अत्र द्वितीये तत्र द्विवारं भवति अस्ति, किन्तु एकं तु अन्म्यूटेड् इति एव अस्ति. अन्यत् हा तत्र अहमपि किमपि न कर्तुं शक्नोमि तत्र. अस्तु अस्तु तर्हि क्षम्यतां भगिनि. हा अस्तु अग्रे तत्र लक्ष्मी भगिनी प्रयत्नं करोति वा?
द्रष्टुम् आगताः बहवः वदन्ति स्म.
तावत् 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 स्वीकुर्मः. तत्र
तं द्रष्टुं
वदन्ति 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 इति अस्ति क्रियापदं.
वदन्ति स्म
बहवः
वदन्ति स्म.
बहवः बहवः वदन्ति स्म. बहवः इति कर्तृपदं. वदन्ति स्म कर्तृपदं. स्म इति भूतकालरूपं भवति. अस्तु तत्र आगताः इति अस्ति. आगतः इत्युक्ते तत्र किं? बहवः इति पदस्य बहवः इति पदस्य बहवः इति पदस्य विशेषणम् आगताः. यः आगच्छति गृहम् आगच्छति वयं वदामः एषः आगतः अस्ति. यदि महिला गृहम् आगच्छति एषा महिला आगता अस्ति, गृहम् आगता अस्ति इति. अतः तत्र आगता
प्रत्ययः
आगतः सत्यम् अस्तु. तत्र आगताः बहवः वदन्ति स्म. तत्र किं तस्य पूर्वं तं द्रष्टुम् इति अस्ति, राजानं द्रष्टुम् आगताः बहवः वदन्ति स्म. किम् इदानीं किं वदन्ति स्म इति प्रश्नः.
भवान् यानि धार्मिककार्याणि करोति ततः भवतः स्वर्गप्राप्तिः निश्चिता.
इदानीं तत्र करोति इति तावत्पर्यन्तं भवान् यानि धार्मिककार्याणि करोति इति, तत्र करोति इति क्रियापदं कर्तृपदं
कर्तृपदं भवान्
भवान्
कार्याणि द्वितीयाविभक्ति.
यानि समीचीनं भगिनि, यानि धार्मिककार्याणि करोति
तत्र यानि विशेषणं
तत्र यः सः यत्तत् इति अस्ति खलु रूपं यत्तत् इति, तत्र यत्तत् इति प्रथमविभक्तिरूपं, किन्तु तत्र यत्तत् तादृशवाक्यं सर्वसु विभक्तिषु कर्तुं शक्नुमः तत्र. अतः अत्र अस्ति यानि इति द्वितीयविभक्तौ. तत्र यानि धार्मिककार्याणि भवान् करोति ततः किं भवति,
ततः भवतः पञ्चमी विभक्ति
तस्मात् कारणात्
स्वर्गप्राप्तिः निश्चिता.
तत्र भवतः षष्ठी स्वर्गप्राप्तिः, भवतः स्वर्गप्राप्तिः निश्चिता. निश्चिता इति लिङ्गं किं तत्र
निश्चिता? भूतकालः
न निश्चिता इति क्रियापदं नास्ति, क्रियापदं नास्ति, नामपदम् अस्ति. निश्चिता इति अस्ति, निश्चिता तत्र क्रियापदं, तत्र तस्मिन् भागे क्रियापदम् अस्ति अस्ति इति. भवतः स्वर्गप्राप्तिः निश्चिता अस्ति. किमर्थं निश्चिता? निश्चिता इत्युक्ते तत्र सन्देहः नास्ति खलु, निश्चिता निश्चितः. निश्चिता किमर्थम् इत्युक्ते तत्र स्वर्गप्राप्तिः स्त्रीलिङ्गपदम् अस्ति. प्राप्तिः स्वर्गप्राप्तिः निश्चितः, निश्चिता अस्ति. निश्चितः भवति विशेषणं, स्वर्गप्राप्तिः विशेष्यं, स्वर्गप्राप्तिः निश्चिता अस्ति इति. अस्तु, तत्र महापुण्यशाली भवान् इति अपि ते वदन्ति स्म. एतस्य श्रवणात्, एतत् सर्वं श्रुत्वा तस्य श्रवणात् राजा महान्तं सन्तोषं प्राप्नोति स्म. अग्रे गत्वा अग्रिमे वर्गे पश्यामः तत्र सन्यासी किं वदति, किमर्थं वदति, अपि तत्र राजः किं कृतवान् इति. अस्तु, तर्हि समयः अपि जातः. वदतु भगिनि,
तत्र दत्तं तं द्रष्टुम् आगताः,
तं राजानं द्रष्टुम्.
किन्तु मम प्रश्नः महोदय, अत्र जनाः तु न दत्तं, किन्तु
बहवः आगताः
एव,
बहवः इति,
बहवः
आगताः. आगताः इत्युक्ते यः आगच्छति सः आगतः.
धन्यवादः महोदय.
धन्यवादः भगिनि. अस्तु,
अर्जेण्ट्.
चिन्ता मास्तु भगिनि, चिन्ता मास्तु, गच्छतु भगिनि. अस्तु, अस्तु भगिनि, चिन्ता
मास्तु.
दृष्टवान् भगिनि. अस्तु,
धन्यवादः.
अस्तु, धन्यवादः. किन्तु अग्रिमवर्गे मिलामः भगिनि, ललिता भगिनि.
अद्य मम गृहे अपि विद्युत् न आसीत् पूर्वम्, अतः एव विलम्बः अभवत्.
ओ अस्तु भगिनि, अस्तु भगिनि. कथमस्ति तत्र
वृष्टिः?
वृष्टिः अस्ति इति कारणात्, अस्तु भगिनि,
विद्युत् गतं.
विद्युत् गतम्. अस्तु अस्तु भगिनि. अस्तु,
धन्यवादः.
नमस्कारः. अग्रिमवर्गे नमस्कारः. नमस्कारः.